श्री शिवा पूज्य पादाब्जा श्री कंधरसहोदरी श्री धुतस्फटिका भूयात् श्रियै मे शारदा निशम् शारदाभ्रसदृग्वस्त्राम् नीलनीरदकुन्तलाम् पारदाम् दुःखवाराशेः शारदाम् सततम् भजे रत्नचित्रितभूषाढ्याम् प्रत्नवाक्स्तुतवैभवाम् नूत्नसारस्यदाम् वाणीम् कृत्स्नज्ञानाप्तये स्तुमः दाडिमीबीजरदनाम् दान्त्यादिगुणदायिनीम् दानधिकृतकल्पद्रुम् दासोऽहं नौमि शारदाम् यैः सदा पूजिता ध्याता यैषा शृङ्गपुरस्थिता शारदाम्बालोकपूज्याः तयेव हि नरोत्तमाः न मत्सुरी कैश्यगन्धलुब्धभ्रमरराजितम् न तेष्टदानसुरभिम् वाणीपादाम्बुजं स्तुमः मस्तराजच्चन्द्रलेखा पुस्तशोभिकराम्बुजा त्रस्तैणनयना वाणी ध्वस्ताघं मान्तनोत्वरम् शारदापादसरसीरुहसंसक्तचेतसा यतिनारचितं स्तोत्रं पठतां शिवदायकम्।